सर्वेषां स्वागतं ध्येयमन्त्रम् उक्त्वा आरम्भं कुर्मः. अस्तु भगिनी वदतु.
पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरम् संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम् संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरम् संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरम् हिन्दुधर्मं समाजं च पवित्रां संस्कृतिं तथा संरक्ष्य ननु कुर्याम विश्वं शान्तिसमन्वितम्. हरिः ॐ श्रीगुरुभ्यो नमः. हरिः ॐ.
धन्यवादः भगिनी. अद्यतनविषयः विभक्तिवल्लर्यां षष्टिविभक्ति. षष्टिविभक्तिम् आरम्भं कृतवन्तः गतवर्गे. प्रथमं रूपं पश्यामः, अनन्तरं कुत्र उपयोगं कर्तुं शक्नुमः इति अपि पश्यामः. रूपं कथम् अस्ति इत्युक्ते पुल्लिङ्गे स्य अकारान्तपुल्लिङ्गे, अकारान्तपुल्लिङ्गे अकारान्त नपुंसकलिङ्गे रामस्य रामयोः रामाणा, ज्ञानस्य ज्ञानयोः ज्ञानाना, एवमेव सर्वनामपदे अपि तथा एव. तस्य तयोः परन्तु तेषाम् आम् नाम् इति भवन्ति. नामपदे बहुवचने नाम, सर्वत्र नाम, नामिति दृष्ट्वा वयं वक्तुं शक्नुमः षष्ठी बहुवचनरूपम् इति. नाम नामिति अन्यत्र न आगच्छति, केवलं षष्टिविभक्ति बहुवचनरूपे एव आगच्छति. एवमेव द्विवचने सर्वत्र योः योः इति भवति, योः योः. अत अपि च नपुंसकलिङ्गे नोः नोः इति भवति. अन्य सर्वत्र योः अथवा वोः. ई अस्ति चेत् योः, उ अस्ति चेत् वोः, ऋ अस्ति चेत् रोः. ओः योः रोः वोः इत्यादीनि इत्यादयः शब्दाः आगच्छन्ति. अस्तु, इ हरि हरेः यथा पञ्चमी विभक्ति आसीत्. हरेः गुरोः पितुः, पितुः मातुः. स्त्रीलिङ्गे याः अस्ति, स्त्रीलिङ्गे अपि पञ्चमी षष्टि समानरूपं, परन्तु अकारान्तपुल्लिङ्ग अकारान्त नपुंसकलिङ्गे तथा नास्ति, भिन्नभिन्नरूपाणि भवन्ति प्रथमतः सप्तमी पर्यन्तं, परन्तु नपुंसकलिङ्गे प्रथम द्वितीय समानरूपम् एवम् अस्ति. अस्तु, मत्याः अथवा मतेः, किमर्थम् इत्युक्ते इकार उकार अस्ति चेत् पुल्लिङ्गवत् भवति अथवा स्त्रीलिङ्गवत् भवति. पुल्लिङ्गवत् मतेः मत्याः, स्त्रीलिङ्गवत् रमायाः. एवमेव अत्र अपि षष्टिरूपे अपि तथा एव, पुल्लिङ्गवत् मतेः धेनोः गुरोः धेनोः, परन्तु स्त्रीलिङ्गवत् रमायाः मत्याः धेन्वाः. उकार अस्ति चेत् वकार, पुल्लिङ्गे अपि स्त्रीलिङ्गे अपि गुरु गुरोः, धेनु धेनोः अथवा धेन्वाः इति अस्ति. वधु वध्वाः. अत्र नूतनपदम् अस्ति, पति पतिः, मम पत्युः नाम, पतेः नाम न, पत्युः नाम, किमर्थं न जानामि, तथा एव अस्ति नियमः, तथा एव अस्ति पत्युः नाम इत्येव वदामः. अस्तु, अतः प्रथमस्तरे पतिशब्दम् अधिकतया न उपयोगं कुर्मः. पितुः शब्दः न उपयोगं, पति पिता माता इति न उपयोगं कुर्मः. जनकः अथवा अम्बा, अम्बायाः जनकस्य इति वक्तुं सुलभः भवति इति उक्त्वा अस्तु. सो तस्य तयोः तेषां शाम् इति भवति, तस्याः तयोः तासां, यथा स्त्रीलिङ्गे तासु अस्ति खलु तासु, एवमेव अत्र तासाम् इति भवति. कुत्र अस्ति? सप्तमी विभक्ते आगच्छति. अस्तु, अत्र नास्ति. तासां साम् इति कुत्र कुत्र आगच्छति? सर्वनामपदे स्त्रीलिङ्गे तासाम् इत्युक्ते ता उदाहरणार्थं बालक बालिकायाः नाम अथवा बालिकायाः पाठशाला तत्र अस्ति. बहुवचनमस्ति चेत् तस्याः बालिकायाः पाठशाला तत्र अस्ति. बहुवचनमस्ति चेत् तस्याः इति स्थाने तासां, बालिकायाः इति स्थाने बालिकानां, तासां बालिकानां पाठशाला तत्र अस्ति इति अस्ति. अस्तु, भवत् शब्दः भवताम् अत्रापि आम्. सो अत्र किं वदामि, तत्र वैशिष्ट्यं तथा अस्ति. भवत् शब्दः अस्ति चेत् भवताम्, भवताम् भवती अस्ति चेत् ईकारान्त स्त्रीलिङ्गः इव भवती, नाम नाम साम ताम इत्यादि इत्यादि रूपाणि अस्ति. ट्रेड् मार्क् इति अस्ति खलु, आम् आम् ताम् नाम अथवा किमपि तथा तथा एव भवति. अस्मत् शब्द मम, मम आवयोः अस्माकम्, सङ्कल्पसमये वयं वदामः खलु अस्माकं सह कुटुम्बानां, कुटुम्बानां क्षेमधैर्य वीर्य विजयार्थं तथा वयं कुर्मः. अस्माकं सह कुटुम्बानां जनानाम् इति. प्रश्नः अस्ति वा? षष्टिविभक्तेः लक्षणम् एवमेव अस्ति, आं नां सां इत्यादि. शाम् अत्र एव शाम् भवति, पुल्लिङ्गे नपुंसकलिङ्गे बहुवचने शाम्, अन्य अन्य सर्वत्र नाम 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 नाम. सर्वनामपदे पुल्लिङ्गे नपुंसकलिङ्गे शाम्, स्त्रीलिङ्गे साम्, भवत् शब्दे भवताम् अस्तु. षष्टि विभक्तेः लक्षणम् अस्ति. कुत्र उपयोगं कर्तुं शक्नुमः चेत् सम्बन्धं सूचयति. अन्य मुख्यविषयः अस्ति, षष्टिविभक्ति अस्ति चेत् क्रियापदानां सम्बन्धः न भवति. अहं किं वदामि इत्युक्ते, प्रथमा विभक्ति बालकः एव स्वीकुर्मः, अथवा रामः गच्छति इति क्रियापदम् अस्ति चेत् प्रथमप्रश्नः अस्ति कः गच्छति? रामः गच्छति. गच्छति इति क्रियापदम् अस्ति चेत् द्वितीयाविभक्तिरूपं द्वितीयाविभक्तिरूपं युक्त उत्तरम् आवश्यकं चेत् प्रश्नः कः? साधारण किं
कं गच्छति?
सो इन्स्ट् आफ् कं दिस् कुत्र, कुत्र? उत्तमम् उत्तमम् उत्तमं महोदय. कुत्र गच्छति? अहम् अहं वदामि किमपि, वनं मास्तु, आपणम्, आपणं गच्छति, आपणं गच्छति. तृतीया विभक्ति
केन गच्छति,
केन सह गच्छति अथवा केन गच्छति अथवा कथं गच्छति, कथं गच्छति. सो वी केन् से कथं गच्छति, केन गच्छति अथवा केन सह गच्छति. अहं वदामि कार्यानेन, कार्यानेन सहोदरेण सह, सहोदरेण सह तृतीया विभक्ति. चतुर्थी विभक्ति किमर्थं, किमर्थं गच्छति? अहं वदामि क्रीणाय, क्रेतुं, क्रीणाय अथवा क्रीणार्थं, क्रीणार्थं. कस्मै कस्य इति कारणाय न, अर्थमेव सम्यक्. क्रीणार्थम् अथवा क्रीणाय अथवा क्रेतुं, क्रेतुं गच्छति. सो वी हाव् टु आस्क् द क्वश्चन् अलाङ्ग् वित् द गच्छति. किमर्थं गच्छति, कथं गच्छति, केन गच्छति, केन सह गच्छति, कुत्र गच्छति, कः गच्छति इति. पञ्चमी विभक्ति कस्मात् अथवा कुतः, कुतः गच्छति, कस्मात् गच्छति, साधारणतया कुतः. सप्तककारम् उपयुज्य वयं पृच्छामः साधारणतया. कस्मात् अपि सम्यक् एव, परन्तु कुतः इतोपि सरलम् अस्ति. कुतः गच्छति, गृहतः गच्छति, गृहतः अथवा गृहात् गच्छति. षष्टि अस्ति चेत् सम्बन्धः अस्ति वा? कस्य गच्छति? कस्य विद्यालये, उत्तमं. कस्य विद्यालये, कस्य अथवा कस्य आपणं गच्छति इति अस्ति खलु. सो अतः भगिनी वदतु,
कस्य गृहम्?
न, आपणं गच्छति इति अस्ति खलु अत्र क्रियापद, ऐ मीन् वाक्ये. अतः कस्य आपणं गच्छति, कस्य आपणं गच्छति, ऐम् सारी, इट्स् आल् मिस्ड् अप् अत्र. कस्य आपणं, सो अत्र अवधानं ददातु यत् कस्य इति पदस्य क्रियापदस्य सम्बन्धः नास्ति, अन्यपदस्य एव सम्बन्धः भवति. एतदेव मुख्य अंशः. षष्ठी विभक्ति इति अस्ति चेत् क्रियापदस्य सम्बन्धः न भवति. कस्य आपणं गच्छति? सहोदरस्य आपणम्. सहोदरस्य आपणम्. सो अपि च षष्ठी विभक्ति अस्ति चेत् अन्यपदम् आवश्यकम्. गृहतः गच्छति, क्रीणार्थं गच्छति, सहोदरेण सह गच्छति, कार्यानेन गच्छति, आपणं गच्छति, रामः गच्छति, परन्तु सहोदरस्य गच्छति न आगच्छति. सहोदरस्य आपणम्, सहोदरस्य कृते, फार् द सेक् आफ् इति. एवम् अस्ति. सप्तमी विभक्ति प्रश्नः कः? कस्मिन् नगरे, कस्मिन् नगरे अथवा कुत्र साधारणतया कुत्र कदा कुत्र न्यूयार्क् नगरे अहं न्यूयार्क् नगरे अस्मि अतः न्यूयार्क् नगरे कदा सायङ्काले सायङ्काले किमपि वादने इति सायङ्काले गच्छति न्यूयार्क् नगरे गच्छति सप्तवादने गच्छति इति क्रियापदस्य सम्बन्धः भवति परन्तु षष्टिविभक्ति एव अस्ति चेत् सम्बन्धः न भवति सहोदरस्य आपणं गच्छति अन्यपदम् आवश्यकम् अपि च साक्षात् सम्बन्धः न भवति कस्य इति प्रश्नस्य क्रियापदस्य च सम्बन्धः न भवति अन्यपदस्य सम्बन्धं सूचयति षष्टिविभक्ति अवगच्छति वा एतदेव मुख्य अंशः किञ्चित् भिन्न अंशः अस्ति षष्टिविभक्ति ओके ऐ एम् सारी अबौट् द मेस् I'll try to do better. Astha.
Bhagini, next time when you're explaining, this is so beautiful. If you can just take up another page and do it, it'll be there on the recording as well.
Aam, Bhagini.
Next time. Next time. Yeah, like this.
No, I can do it now also. Okay. Drishyate kalu? Yes?
Aam, Bhagini.
So, Atra... अहं बृहत् करोमि गच्छति गच्छति इति अस्ति चेत् प्रथमप्रश्नः अस्ति कः गच्छति अथवा का गच्छति अहं वदामि रामः एव सो दिस् इस् प्रथमविभक्तिरूपम् रामः गच्छति द्वितीय सो अत्र गच्छति इति अस्ति चेत् प्रश्नः भवति कुत्र परन्तु अन्य किमपि प्रश्नः आनयति अथवा पठति इति अस्ति चेत् प्रश्नः कः किं न कः आनयति द्वितीयप्रश्नः किम् आनयति अथवा कुत्र गच्छति किम् आनयति अथवा कुत्र गच्छति इति भवति द्वितीयविभक्तिरूपम् उत्तरं किम् अत्र पुस्तकम् आनयति अथवा कण्डोलम् इति वदामि अतः द्वितीयविभक्तिरूपं सम्यक् द्रष्टुं शक्नुमः कण्डोलम् आनयति अथवा आपणं गच्छति आपणं गच्छति तृतीयविभक्तिरूपं कथम् आनयति अथवा कथं गच्छति कण्डोलं कथम् आनयति हस्तेन किमपि वदामि हस्तेन आनयति कार्यानेन गच्छति सो अत्र वि केन् एड् रामः बिकास् वि फौण्ड् दि आन्सर् रामः कण्डोलम् अत्र अपि रामः किम् आनयति
Kandolam meaning?
Basket. रामः कथम् आनय रामः कण्डोलं कण्डोलं कथम् आनयति रामः कण्डोलं हस्तेन आनयति अस्तु चतुर्थी विभक्ति क्षम्यताम् अम्ब बहु ध्वनिः अस्ति अहं म्यूट् कृतवती अस्तु रामः कण्डोलं
किमर्थं
हस्तेन किमर्थं किमर्थम् आनयति अथवा किमर्थं गच्छति किमर्थम् आपणेन आपणं गच्छति किमर्थं किमर्थम् आपणं गच्छति किमर्थं कार्यानेन खलु किमर्थम् आपणं कार्यानेन किमर्थं क्षम्यतां अस्तु किमर्थं कार्यानेन आपणं गच्छति किमर्थम् आनन्दार्थम् अहं केवलम् आनन्दार्थम् इति वदामि वा पूजार्थं पूजार्थम् पूजार्थम् अथवा क्रीणार्थम् क्रीणार्थम् अथवा क्रीणाय क्रेतुम् इत्यादि क्रीणाय इत्यादि पञ्चमी रामः कुतः कुतः आनयति कुतः गच्छति इति रामः कण्डोलं हस्तेन आनन्दार्थं कुतः आनयति
गृहतः
गृहात् आनयति सम्यक् गृहात् आनयति एवमेव कुत्र अस्ति कण्डोलम् अस्ति आपणं खलु अस्तु अहं लिखामि रामः गृहात् कार्यानेन आपणं क्रीणार्थं गच्छति अस्तु पञ्चमी अभवत् षष्ठी सम्बन्धः न भवति अतः प्रश्नः अस्ति कस्य रामः इति अस्ति कस्य सहोदरः रामः अथवा अत्र सम्बन्धं वदामः चेत् रामः इति पदस्य सम्बन्धम् अथवा कण्डोलः इति पदस्य सम्बन्धम् अथवा कस्य गृह कस्य गृहम् एतेषु एतेषु एकस्य पदस्य सम्बन्ध सम्बन्धः भवतु
कस्य आपणम्
कस्य आपणम् आपणमपि कस्य कण्डोलम् रामः कस्य कण्डोलम् आनयति रामः कस्य गृहतः आनयति रामः कस्य आपणं गच्छति अथवा कस्य पुत्रः रामः कस्य जनकः रामः कस्य सहोदरः रामः इति अन्यपदस्य सम्बन्धं सूचयति षष्टिविभक्ति न तु क्रियापदस्य कुतः गच्छति कुतः आनयति किमर्थम् आनयति किमर्थं गच्छति किम् आनयति कः गच्छति परन्तु कस्य इति पदम् अस्ति चेत् एतेषु यस्य कस्यापि यस्य कस्यापि पदस्य एव सम्बन्धं वर्तते सम्बन्धम् अस्ति न तु क्रियापदस्य एतदेव मुख्य अंशः अपि च सप्तमी रूपमस्ति चेत् कुत्र आनयति कण्डोलम् मन्दिरम् आनयति परन्तु कस्मिन् नगरे भारतदेशे अथवा लैक् वेर् डिड् दिस् हेपन् कुत्र कस्मिन् नगरे चेन्नै नगरे दिस् हेपन् चेन्नै नगरे अण्ड् देन् वी केन् से चेन्नै नगरे रामः आनन्दार्थं गृहतः मन्दिरम् आनन्दार्थं गृहतः मन्दिरं कण्डोलं हस्तेन आनयति अन्यवाक्यं चेन्नै नगरे रामः क्रीणार्थं कार्यानेन आपणं गच्छति अत्र वयं षष्टिविभक्तिं न योजितवन्तः मन्दिरं कस्य कण्डोलम् अथवा कस्य गृहतः अथवा रामः इति अन्यस्य सम्बन्धः कः इति न लिखितवन्तः सो अत्र किमपि आवश्यकम् मम सहोदरः रामः इति अथवा मम गृहतः अथवा मम गृहतः अथवा मम कण्डोलम् अतः षष्टिविभक्तेः वैशिष्ट्यम् एवम् अस्ति, अन्यपदस्य सम्बन्धः भवति, अन्यपदस्य, मम, मम कण्डोलं, मम गृहतः इति. वी केन् आल्सो से तस्य हस्तेन, डजन्ट् मेक् सेन्स् परन्तु तस्य सम्बन्धः एवम् अस्ति, परन्तु क्रियापदस्य सम्बन्धः न भवति. एवमेव अत्र अपि चेन्नैनगरे मम सहोदरः रामः, मम सहोदरः रामः मम कार्यानेन अथवा तस्य कार्यानेन, तस्य अथवा मम, एवमेव अत्र अपि मम अथवा तस्य, तस्य आपणं गच्छति इति. अवगच्छति वा अत्र? एवमेव सप्तमी विभक्ति अपि, परन्तु सप्तमी विभक्ति साक्षात् क्रियापदस्य सम्बन्धः भवति. कदा गच्छति? कदा आनयति? कदा आनयति गच्छति? वयं वक्तुं शक्नुमः मध्याह्ने वा प्रातः वा, प्रातः सप्तवादने इति. साक्षात् सम्बन्धः भवति, परन्तु षष्टिविभक्ति इति अस्ति चेत् सम्बन्धः न भवति. अस्तु, अग्रे गच्छामः तर्हि. अस्तु, अद्यतनविषयः अस्ति पठनं, श्रवणं, गमनम् इत्यादीनि पदानि भाववाचकानि इति उच्यते. भाववाचकपदं कथम् आगच्छति इति अस्ति चेत् पुनः अत्र गच्छामि. भाववाचकपदम्, भाववाचकपदं कथम् आगच्छति इत्युक्ते साधारण पदं पठामि अथवा पठति. पठामि इति अस्ति चेत् पठनं करोमि. सो अत्र मुख्यविषयः अस्ति करोमि, करोति. किं करोति? पठनं करोति, पठनं करोति. गच्छति इति अस्ति चेत् गमनं करोमि. सो अत्र करोमि इस् कामन् इत्युक्ते सर्वदा आगच्छति, सदा आगच्छति. गमनं, गमनं करोमि.
गमनम् इस् भाववाचकपदम्.
सम्यक्, गमनम् इस् द भाववाचकपदम्. सो अत्र भाववाचकपदानां योगे कर्मपदस्य, कर्तृपदस्य च षष्टिविभक्ति भवति. इत्युक्ते किम्? अन्यपदं योजयामः, रामः गच्छति. सो अत्र रामः इति योजयामः, तावदेव. रामः इति वदामः चेत् तत् शुद्धं नास्ति. रामः गमनं करोति इति सम्यक्, रामः गमनं करोति, दिस् इस् ओके. परन्तु रामस्य अन्य क्रियापदं लिखामः चेत् रामस्य इति भवति. रामस्य गमनम् अस्ति अथवा भवति. भवति इत्युक्ते इट् इस् हेपनिङ्ग्. इदानीं रामस्य गमनं न आगमनम् इति लिखामि. रामस्य आगमनं भवति इत्युक्ते किम्? द कमिङ्ग् आफ् राम इति अर्थे. इस् हेपनिङ्ग्. रामस्य आगमनं भवति. सो अत्र आगमनम् इति पदं क्रियापदं नास्ति. अस्मिन् वाक्ये क्रियापदं किम्? भवति भवति. सो अतः आगमनम् इति नामपदमेव. क्रियापदम् अस्ति चेत् भवति भवन्ति इति रूपाणि भवन्ति खलु. भवामि, वयं भवामः इति. नामपदम् अस्ति चेत् कीदृशरूपाणि भवन्ति? विभक्तयः. नामपदमस्ति चेत् विभक्तयः, क्रियापदमस्ति चेत् लकाराः. भूतकाल, भविष्यत्काल इति कालम् अथवा भावं सूचयति. क्रियापदमस्ति चेत् नामपदमस्ति चेत् विभक्तयः भवन्ति. आगमनम् अस्तु. द्वितीयविभक्तिरूपं कथं भवति? अतः अथवा द्वितीयविभक्तिवाक्यं कथं भवति? रामस्य
आगमनेन
तृतीय भवति. आगमनं पश्यतु. सो अत्र वयं क्रियापदं पश्यतु इति वदामः चेत् भवान् इति भवति खलु. भवान् अथवा भवती रामस्य आगमनं पश्यतु अथवा अहं रामस्य आगमनं पश्यामि इत्युक्ते अन्य कर्ता भवति. अत्र किं वदति? कर्मपदस्य कर्तृपदस्य षष्टिविभक्ति भवति. सो अत्र रामः इति कर्मपदं कर्तृपदम्. रामस्य आगमनं भवति सर्वदा. रामस्य एव तृतीयाविभक्ति आगमनेन इति उक्तवती खलु. अत्र अपि रामस्य आगमनेन. रामस्य आगमनेन किं भवति?
जनाः आनन्दम्
रामस्य आगमनेन जनाः सन्तोषम् अनुभवन्ति. सो अतः आगमनेन, आगमनार्थम् इत्यादीनि रूपाणि भवन्ति. अत्र कर्तृपदस्य षष्टिविभक्ति भवति. इदानीं कर्मपदं पश्यामः. बालकः पठति. किं पठति? पाठं पाठं पठति. पठति अथवा पठति इति वदामः चेत् भाववाचकपदम् उपयुज्य कथं वदामः, विभज्य प्रयोगः इति नाम. पठनं करोति, पठनं करोति. सो अत्र पाठम् इति लिखामः चेत् दोषाय भवति. पाठं पठनं करोति इति वदामः चेत् तत् सम्यक् नास्ति. सो अतः कथं लिखामः? पाठस्य पठनं करोति. पाठस्य अस्मिन् वाक्ये, एतस्मिन् वाक्ये पाठम् इति कर्मपदम्, अतः पाठस्य इति भवति. तावदेव. ओके,
सो आर् यु सेयिङ्ग् द कर्मपदम् विल् चेञ्ज् टु सम्बन्ध?
इट् विल् चेञ्ज् टु षष्टिविभक्ति. पाठस्य पठनं करोति. अस्तु, दट् इस् द एसेन्स्य. कर्मपदस्य कर्तृपदस्य च षष्टिविभक्ति भवति. सो ततः पूर्वं भवति. अस्तु, अस्तु, अग्रे. अस्तु, रामस्य आगमने विलम्बः नास्ति. रामस्य आगमने मम सन्तोषः अस्ति, मम विश्वासः अस्ति इति. पुस्तकस्य अध्ययनेन ज्ञानं वर्तते इति अस्ति. गीतम् इति कर्मपदमस्ति. गीतस्य श्रवणेन अहं सन्तुष्टः अस्मि. स्त्रीलिङ्गम् अस्ति चेत् सन्तुष्टा अस्मि. भाववाचकपदं विच् हेस् टेकन् सप्तमी विभक्तिरूपम्. भाववाचक आगमनं, पठनं, गमनं, लैक् दट् आल् द नम् नम् इति गानम्. आमां, निश्चयेन विभक्तिरूपम् आगच्छति. अस्तु, अत्र आगम अध्ययनेन अध्ययनं करोति. सो प्रथमं द फस्ट् स्टेप् इस् आगच्छति, आगमनं करोति. देन् करोति त्यजामः, अण्ड् देन् इट् बिकम् भाववाचकपदम्. वेन् वि रैट् आगमनं करोति विभज्य प्रयोगः, देन् त्यजामः करोति इति पदस्य पदं त्यजामः. अनन्तरम् आगमनम् इति भाववाचकपदम् इति नाम वर्तते. अनन्तरम् आगमनेन, आगमने, आगमनस्य, आगमनात्, आगमनार्थम् इत्यादीनि रूपाणि भवन्ति. अस्तु, सो इत्यादीनि रूपाणि भवन्ति चेत् ततः पूर्वं षष्टिविभक्तिरूपं भवति. अस्तु, उषा भगिनी आरम्भं करोति वा? सो अत्र सर्वत्र षष्टिविभक्तिरूपं भवति.
सो योग्यः आहारः परिवर्तनं करोति.
परिवर्तनं, योग्यः मीन्स् अप्रोप्रियेट्.
योग्यस्य आहारः, वन् सेकेण्ड्, वाट् इस् द सेण्टेन्स् एक्चुलि? योग्यः आहारः सेवनेन विल् बि दि भाववाचकम्.
आम्, सेवनं, सेवनेन
शक्तिः वर्धते. योग्यस्य आहारस्य
योग्यस्य
आहारस्य सेवनेन शक्तिः वर्धते.
योग्यस्य आहारस्य सेवनेन शक्तिः वर्धते. अस्तु अम्ब अन्म्यूट् करोतु, वदति वा ग्रन्थाः. बहुवचनमस्ति, बहुवचनम् अस्ति चेत् नामिति इति भवति.
ग्रन्थानाम् अध्ययनम् एव ग्रन्थानां
सम्यक् ग्रन्थानाम् अध्ययनमेव
सरस्वत्या आराधनम्
सम्यक्
सरस्वत्याः आराधनं
सम्यक् ग्रन्थानाम् अध्ययनमेव सरस्वत्याः आराधनं. वयं ग्रन्थं पठामः चेत् सरस्वत्याः पूजाम् इव भवति, पूजा इव भवति अध्ययनं. सम्यक् सागरि भगिनि, धन्यवादः अम्ब. सागरि भगिनि,
सः विषयस्य प्रतिपादनं सम्यक् कृतवान्.
विषयस्य प्रतिपादनं, प्रतिपादनम् इत्युक्ते विवरणं, सम्यक् विवृतवान् इति अध्ययनं अध्ययति. विषयस्य प्रतिपादनं सम्यक् कृतवान्. अस्तु धन्यवादः भगिनि. श्रीनिवासमहोदय,
अद्य प्रातःकाले कार्यक्रमस्य
उद्घाटनम् इत्युक्ते ओपनिङ्ग् टुक् प्लेस्. सो जातम् इति स प्रत्यय
हेपेण्ड्.
सो अत्र कर्ता अस्ति चेत् अद्य अहं प्रातःकाले कार्यक्रमस्य उद्घाटनं कृतवती अथवा कृतवान्, सः कृतवान्. परन्तु अत्र जातं, जातम् अत्र कर्म कर्ता नास्ति. सो सो
जातम् इस् यू सेड् ता प्रत्ययः.
Yeah, jatam, jataha, kritaha, like that.
It's a pratyaya.
Pratyaya, it's like kritavan iti asti kalo, kritavan. Oh. So, van iti teja maha chet krita, kritam, kritaha, krita, like that.
Bhagini, karmani prayogaha va, vakyam.
कर्मणि प्रयोगः सम्यक्. त प्रत्यय अस्ति चेत् साधारणतया कर्मणि प्रयोगः भवति.
धन्यवादः.
वयं वदामः खलु अवगतम् इति, तदपि कर्मणि प्रयोग एव. श्रुतं, श्रूयते, मया श्रूयते वा. अस्तु अग्रे सविता भगिनि. एतत् पठतु पञ्चम.
भवान् शीघ्रं पुस्तकम् अन्वेषणं करोतु, भवान् शीघ्रं पुस्तकस्य अन्वेषणं करोतु.
सम्यक्, पुस्तकस्य अन्वेषणं
करोतु.
पुस्तकम् अन्वेषयतु अथवा पुस्तकस्य अन्वेषणं करोतु. सम्यक् परमेश्वर महोदय.
वस्त्रादीनेन दानेन पुण्यं लभ्यते.
सो अत्र बहुवचनं सर्वदा नाम वस्त्रादीनां
दानेन पुण्यं लभ्यते.
पुण्यं लभ्यते. अस्तु, उमाकृष्णन् भगिनी.
पण्डितः
भगिनी, लभ्यते किं प्रयोगः?
कर्मणि एव.
कर्मणि. एण्ड् दट् वर्ब् लभ्यते, it's different from karoti, right? So what
it is like labhate. Labhate iti aatmanepadi roopam.
Aatmanepadi.
So we will read that the next level. Labhate, labhyate.
Nam bhagini.
Uma Krishnan bhagini.
Panditaha tada grataha parishilinam करोति. पण्डितः सदा ग्रन्थानां परिशीलनं करोति.
सम्यक्, ग्रन्थानां परिशीलनं करोति. सम्यक्. अन्य कोऽपि अस्ति वा नूतनछात्र? अस्तु, उषा
भगिनी.
भगिनी नाम वदतु.
अहं शारदा भगिनी.
शारदा. अस्तु, अन्य कोऽपि अस्ति वा? नास्ति. अस्तु
भगिनि.
सो वस्त्र इस् देन् देर् आर् अदर् थिङ्ग्स्. आदि, आदि मीन्स् स्टार्टिङ्ग् फ्रम् वस्त्र.
सो इट् बिकम्स् प्लूरल् आटोमेटिकलि.
आटोमेटिकलि वस्त्रादीनि. सम्यक्, उत्तमप्रश्नः. वस्त्रादीनि, पुस्तकादीनि, पुस्तकादय. आदि, स्टार्टिङ्ग् फ्रम् आदि, लैक् एट्सेट्रा. वस्त्रम् एट्सेट्रा इति. अस्तु, शारदा भगिनि.
भगिनी इटु
शारदा अस्ति भगिनी, अनन्तरं भवति.
कर्मकरी पात्राणां प्रक्षालनं कृत्वा गृहं गच्छति.
सम्यक्, पात्राणां बहुवचनरूपम्. अस्तु, उषा भगिनि.
कवच कर्णः, कर्णः निर्धनाय कवचम् कवचस्य कर्णः निर्धनाय कवचस्य कुण्डलस्य च दानं कृतवान्.
सम्यक्, दानम् इति भाववाचकपदम्. अतः कवचस्य कुण्डलस्य दानं कृतवान्. सो वेन् वि हेव् दानं कृतवान्, वि केनाट् से दानेन दानाय दानस्य. इट् डजन्ट् वर्क् दट् वे. दानं कृतवान् इस् ओन्लि दानं कृतवान्. रूपस्य परिवर्तनं न भवति.
कर्मपदं.
किं करोति? दानं करोमि. सम्यक्, सम्यक् भगिनि. अस्तु, अम्ब अस्ति वा? अन्म्यूट् करोति वा अम्ब? अस्तु, सागरी भगिनी अग्रे.
अहं मूल्याङ्कः नाणकानि सङ्ग्रहं करोमि. अहं मूल्याङ्कानां नाणकानां सङ्ग्रहं करोमि.
सङ्ग्रहं करोमि. अस्तु, सम्यक्. सो अग्रे प्रश्नः वा?
आं भगिनि, जस्ट् वै डु वि नीड् विभज्य प्रयोगः? वि केन् जस्ट् से अहं यु नो इन् द्वितीया ओर् वाट् एवर् पठामि, पठति, करोमि.
उत्तम, उत्तमप्रश्नः. So usually for like when we say like ఆనందం ఆనందం అనుభవామి. So when you want to express like that, the vibhajya prayoga, it becomes handy. Like ramasya agamanartam aham siddham karomi, I am getting the house ready for him. Or I can say ramaya ramasya krite aham griham siddham karomi api vaktum shaknamah vayam. But I have heard another reason is there are difficult words, Bhagini. The Kriya Padam. Abhyasa Darshinyam Asti. I'll try to get it for you. Ekanimsha. Abhyasa
Darshinyam. You won't be able to convert it into the respective Lakara. We use Vibhajya
Prayoga. Yes. Asti. Ekanimsha. Kutra Asti.
भगिनी विपच्य प्रयोगः सुलभः अस्ति वा?
आम् आं भगिनि,
बिकास् वि जस्ट् यूसिङ्ग् दिस् करोति लैक् दट्.
आम् आम्
अगेन् भगिनी किं रिव्यू विभज्य प्रयोग अगेन् ऐ एम् गेटिङ्ग् कन्फ्यूस्ड्.
करो पठामि पठनं करोमि,
दट् इस् विभज्य प्रयोग.
పఠనం కరోమి,
భావవాచక పదం.
యా, అండ్ దెన్ ద పఠనం బికమ్స్ భావవాచక పదం. దానం కరోమి, దదామి. యు కెన్ సే కరుణః నిర్ధనాయ కవచం కుండలం చ దత్తవాన్. సో వెన్ వి టేక్ దానం కృతవాన్, వి కెన్ రైట్ దత్తవాన్.
Is that the vibhajya prayoga?
Danam kritavan is vibhajya prayoga.
Okay, so we are vibhajya means to
splitting.
So what are we splitting?
Dadati becomes danam karoti.
Okay,
the present tense, danam karoti iti vartamana kala, atah danam dadati. Dadati is danam karoti. So the danam word stays as is. Danam karoti, danam kritavan, danam karishyati, danam kartum gachyati, danam kritva anandam anubhavati. So danam doesn't change. Danam,
so only the kriya padam is being split.
It becomes past tense, present tense, kritavan, kritavati, kritavantah,
okay,
kartum, kritva, karomi, kurmah, like that. All the changes happens here.
To the kriya padam, not to the bhavavachaka padam.
Not the bhavavachaka padam, if it is joined with kritavan, if it is joined with the kridhatu.
Okay.
So here it is karomi, somewhere it is something else, kimapi bhavati. Parantu kritavan iti tyajamaha chet, kri dhatu tyajamaha chet, danam iti padasya parivartanam bhavati. Danam karotu, then it is dvitiya vibhakti. Danena, danaya, danasya, danat, dane, like that.
Okay, I got it still mull over it. I get confused halfway.
So
what is the meaning of the last sentence? Mulyankanam.
Stamps.
Nana kaninam.
Stamps. Mulyankaha itike stamps. Aham. Nana kani. Coins. Nanakani.
Stamps and coins.
Stamps and coins. Sangraham karomi. I used to do that too. Balya kale. Atra kutra asti iti na janam. So, ataha, So I try to look in Abhyasa Darshini, but I can't find it. But I'll show it the next time. Astu. So atra mukhya amshaha asti. The Kimartam is a very good example. I mean, very good question. Difficult words like pidanam. Pidanam is a good example. Pidanam karomi. Pidanam karomi.
So pidanam is closing.
Yes, closing. Pidanam karomi. If I want to write it without the vibhajya, it is actually pididhatu or something like that. I could never remember this. Pididhati or something. So this is a very difficult word for me. So I say pidanam karomi. Same thing like bhojanam karomi. Bhojanam karoti. So for bhojanam karoti, the kriya padam is actually bung te or something. Bung.
So, Bhagini, if we don't know the verb form, this is one way of using it easily.
Bhojanam karotu. We never say bhunjatu or bhunte or something.
Just like in Panchami, we use taha, which is an easier form.
Easier form. I think
that's the bhagini.
Yeah, in the Bhagavad Gita also it becomes bhunjate te to ram.
Bhunjate. So it becomes bhunte, bhunjate, bhunjatu.
Yeah.
Bhunjato athava bhojanam karotu. Easy. Bhojanam karotu. So I think this is not. Dhanyavada bhagini. Uttama prashna actually. And this is the reason. So Abhya, if you can find the page, I will show it to you. I can't figure out. Jatiti, I can't figure out.
Number 67, bhagini. I just looked it up.
Uttama, 67. Dhanyavada. Oh, this is something. Pustakasya Parishilanam. Pidanam Karoti. This is a difficult word. Pidanam. Chedanam. Also difficult word.
So what was the saying over there? Shuddham and Ashuddham? What is Ashuddham?
So this is Shuddham. You have to use Shashti Vibhakti.
Uh-huh.
You cannot use Dvitiya Vibhakti.
Oh, okay.
Patranam prakshalanam. Patrani prakshalanam na. Patranam prakshalanam eva.
Oh, I see, okay.
Dhanasya vikrayanam. I mean, dhanyasya vikrayanam. Dwarasya pidanam. Adhyayanam. You say adhyayatu, adhyayate, like that.
Hmm.
And these are all difficult words. Verbs. Prakshalayatu, not difficult. Vikrinite, vikrinate, like pidanam, adhyayanam. Etani. Samudrasya matanam, vikrayanam, abhyasam, vimarshanam. Astu, evameva bhavati. Dhanyavada bhagini. Astu. So, astu. Atra kim asti anantaram. अनन्तरम् इति पदम् आगच्छति चेत् ततः पूर्वं षष्टिविभक्तिरूपं भवति, परन्तु परम् अस्ति चेत् विभक्ति का पञ्चमी वयं वक्तुं शक्नुमः वर्गस्य अनन्तरम् अहं पाकं करोमि अथवा वर्गात् परं वर्गात् परम् अथवा वर्गस्य अनन्तरं वर्गात् पूर्वमेव वर्गस्य पूर्वं न भवति वर्गात् पूर्वं वर्गस्य अनन्तरं वर्गात् परम् इति अस्ति. सो अत्र मुख्य अंशः अस्ति षष्टिविभक्ति अनन्तरम् इति पदम् उपयोगं कुर्मः चेत् परम् इति समान अर्थकपदं परम् उपयोगं कुर्मः चेत् पञ्चमी.
So this is a before and after. Purvam is before, param is after.
After. Anantaram is also after. Okay. Like Purvam. Udaharanamasti devasya namaskarasya anantaram. So namaskaram api bhavavachaka padam. Aham namaskaromi. Namaskaram karomi. नमः ते नमामि. सो नमति इति क्रियापदमस्ति नमति. अहं नमामि नमस्करोमि नमस्कारं करोमि अपि नमस्कारम् इति वदामः चेत् तत् भाववाचकपदं भवति. अतः देवस्य नमस्कारं करोमि परन्तु अनन्तरम् आगच्छति अतः एतदपि षष्टिविभक्तिरूपं स्वीकरोति देवस्य नमस्कारस्य अनन्तरम् इति. अस्तु एतत् चित्रं दृष्ट्वा वयं वाक्यानि वदामः. इतः आरम्भं करोति देवस्य नमस्कारं कृतवान्. अत्र दिस् इस् अ वेरि गुड् अभ्यास. नमस्कृतवान् इति अस्ति अतः कथं विभज्य प्रयोगं कुर्मः नमस्कारं कृतवान् नमस्कारं कृतवान्. सो नमस्कारम् इति भाववाचकपदम् अतः देवम् इति परिवर्तनं भवति.
So, would you say देवस्य नमस्कारस्य
अनन्तरं निकन्ते देवस्य नमस्कारस्य अनन्तरं सम्यक्
वस्तूनि क्रीतवान्
विद्युत् गता लैक् दिस्
ओके
इट् गोस् दिस् वे अस्तु देवस्य नमस्कारं कृतवान्. सो द फस्ट् स्टेप् इस् लैक् दिस् देवस्य नमस्कारं कृतवान्. प्रथमं नमस्कृतवान् चेञ्जस् इन् टु नमस्कारं कृतवान् देवम् इस् कर्मपदम् अतः देवस्य नमस्कारं कृतवान्. नौ वि आर् गोयिङ्ग् टु यूस् अनन्तरं. सो अतः कृतवान् गच्छति नमस्कारं विल् बिकम् नमस्कारस्य अनन्तरं नमस्कारस्य अनन्तरम् देवस्य नमस्कारस्य अनन्तरं किम् अभवत्
विद्युत् गता
and that is how we have to do this exercise. Anantaram kim bhavate
जनकः आहूतवान्.
जनकः आहूतवान्. एकनिमिषम् अहं पुस्तकं स्वीकरोमि. अनन्तरं विद्युत् गता. विद्युत् गता इति कथं लिखामः वयं विद्युत् गता?
विद्युत् गमनस्य अनन्तरं.
गमनस्य विद्युत् इति विद्युत् एव. विद्युत् गमनं करोति खलु, गमनं कृतम् और् कृता. या दिस् इस् अ बिट् डिफिकल्ट् ओके, बट् इट्स् अ गुड् एक्ससैज् ओके. सो विद्युत् गता. सो हौ डि वि चेञ्ज् द गता
भगिनी? विद्युत् डजन्ट् चेञ्ज् इट्. Vidyut remains Vidyut.
Vidyut.
Because we said Devasya, like that Vidyut, it doesn't change.
See, Vidyut is the Halanta Padam. Yeah, that's a good question. Halanta Padam. So Halanta Padam we have not learned. But if you want to use it, it is like Bhavatya.
But isn't it also Karma Padam?
It is. It is. So it becomes Vidyutaha Gamanasya Anantaram.
So Vidyutaha is the Shashti Vibhakti of Vidyut?
Yeah. Just like
Vibhakti. Okay.
And Gata is a past tense, right?
Yeah, it is like that. Akta Pratyaya.
So there we use the Lakaras.
Lakara, yeah. So Vidyut, I don't know why they are introducing this here, but that is how it is, like the Bhavataha, right? We say Bhavataha Namakem, so Bhavat Shabdaha. So the Shashti of this will be Vidyutaha. How will we change Gata into Bhava Vachaka Padam?
Gaman.
When we have the id and the yeah, it's like that.
Vid plus yut, is it? Vid.
So it's yut.
Vid plus yut. That is what my confusion started.
So it is not this the.
Yeah, that's what it looks. The printing looks like that, so that's why I got confused.
Yeah. Correct. It's not this one. Okay. So the gata. How do we change the gata? Gata is, let's make it, because it is a Napumsakalinga Padam. So we generally don't use the Tavatu Pratyaya. For Pullinga, Strilinga, we use Tavatu Pratyaya. So the Tavatu Pratyaya, we use Gatavan or Gatavati. But because it is Napumsakalinga Padam, we generally don't use the Tavatu Pratyaya. Strilinga Padam. विद्युत् गता. विद्युत् गता इति अस्ति. सो दिस् वी केन् चेञ्ज् इट् टु गमनं जाता. वि केन् से गमनं जाता, जातं जाता, गमनं जाता. The gata can be changed into gamanam jata. So vidyut, it is like bhavat shabdaha. So it is vidyutaha. So this is a good exercise, but kind of difficult. Vidyutaha gamanasya anantaram kim abhavat?
Janakaha
ahutavan. So this exercise we will do it together, at least until we get the hang of it. Janakaha ahutavan iti. So how do we change the ahutavan into vibhajya prayogah? Ahvanam. So ahutavan will become ahvanam.
Ahvanam kritavan.
Ahvanam kritavan. So now we get rid of kritavan. So how will this sentence become?
Janakasya
ahvanasya iti bhavati. Janakasya ahvanasya anantaram. This becomes ahvanasya because of anantaram. And this becomes janakasya because of ahvanam. Ahvanam kritavan. Janakasya ahvanam kritavan. Vidyutaha gamanasya anantaram janakasya ahvanam kritavan. That will be the sentence. Avagachanti va? Stay with the thought, okay? If your mind wanders, it won't work. Vidyutaha gamanasya anantaram janakasya ahvanam kritavan. Janakasya ahvanasya anantaram kim kritavan? Kim pustakam patitavan. Pustakam patitavan. Janakasya ahvanasya anantaram saha pustakam patitavan. Atava pustakasya patanam kritavan. Patanam kritavan. Pustaka. That is the next step. Hello? The first step is janakasya ahvanasya anantaram pustakam patitavan. So we change the patitavan into vibhajya prayogaha. Pustakasya patanam kritavan. Patanam kritavan. Kimatam kritavan? Because patitavan, bhutakala. Pustakasya patanam kritavan. Now we have to use anantara. Patanasya anantaram. So that is because patanasya anantaram. Pustakasya patanasya anantaram kim abhavat?
Kolahalaha
srutaha. So this is the tavatu pratyaya, this is only ta pratyaya. Kolahalaha srutaha. Here we can say saha pustakam patitavan. Here we have to say tena. Tena kolahalaha srutaha. Atava saha kolahalaha srutavan. Avagatam, the difference. If we use saha, it will be srutavan. Saha kolahalaha srutavan. Atava tena kolahalaha srutaha. Srutaha ta pratyaya. Srutavan tavatu pratyaya. Astu. So atra. पुस्तकस्य पठनस्य अनन्तरं कोलाहलः श्रुतः. इदानीं लेट्स् वर्क् आन् द श्रुतः. हौ डि वि चेञ्ज् श्रुतः इन् टु विभज्य प्रयोगः. श्रवणं कृतः खलु, कृतः, बिकास् लेट्स् मेण्टेन् द सेम् प्रत्यय. श्रुतः कृतः, श्रवणं कृतः. एनिवे द कः इस् गोयिङ्ग् टु गो अवे. When we say Shravanam Kritaha, how does the Kola Halaha change?
Kola Halasya.
Kola Halasya. Okay. So when we change this to Vibhajya Prayogaha, then it will become Kola Halasya Shravanam Kritaha. So now we have to use anantaram. Then what happens? Shravanasya anantaram. Shravanantaram is samyak. But if you are using the bhava vachaka padam, then we have to use kolahalasya shravanasya anantaram. सम्यक् महोदय, सम्यक्. कोलाहलस्य श्रवणानन्तरं, दट् इस् आल्सो ओके. श्रवणानन्तरं कोलाहलस्य श्रवणानन्तरं दूरवाणी आगता. कोलाहलस्य श्रवणस्य अनन्तरं दूरवाणी आगता. सो like how Mahodaya said, if you're using Shravananantaram, then Kolahalasya Shravananantaram. Whenever we use Anantaram, it has to be Shashti Vibhakti. We cannot say Kolahalanantaram, Kolahalasya Anantaram, Kolahalaha Anantaram na Bhavati. Kolahalasya Shravananantaram. Duravani Agata. So let's work on the agata. Katam bhavati vibhajya prayogah. Agata.
Agamanam
jata. If it is not kritavan like that, like whenever we have like gata, jata. Okay. So agamanam jata.
Bhagini, what is the
Moolapadam
Jata? Ja?
No, actually it's like a Jananam Abhavat, like that. It happened like that.
Oh.
Or Agamanam Abhavat. We can also say Abhavat. Agamanam happened. Agamanam Abhavat. Jata Abhavat. Agamanam Abhavat. But when we use Agamanam, what happens to Duravani?
Duravanya.
Vanyava?
Vanyaha.
Yanyaha. Duravanyaha Agamanam Abhavat. Agamanam Jata. But when we use Anantaram, then what happens? आगमनस्य अनन्तरं पानीयं पीतवान्. अस्तु, पानीयं पीतवान्. ओके, नौ विल् हेण्डल् पीतवान्. हौ डि वि चेञ्ज् इट् पीतवान्? No, no, actually it is Pana. Pana. I don't know why it is like that, but Pana. Panam Kritavan. Panam Kritavan. Then the Paniyam will become?
Panam. Paniyam.
Paniyasya.
Paniyasya Panam Kritavan. Supposing I change it to Payasam, then what happens?
Payasasya.
Same thing. Paniyasya. Payasasya. Payasam Pitavan. Payasasya Panam Kritavan. Okay. Paniyasya Panam Kritavan. Now we have to use Anantaram. Panasya Anantaram.
Gananam Parishilitam.
Gananam Parishilitavan. Anantaram. Astu. So I will just delete this one. Gananam Parishilitavan. So now we are little bit more familiar how this works, right? So how do we do this? Parishilitavan. So instead of steps, now we know. Gananam. So it is a strilinga padam.
Ganana yaha.
Yaha. Yaha.
Parishilitavan.
Parishi gananaya. So atra parishilitavan, how do we do vibhajya prayogaha katam bhavati?
Parishilanam kritavan.
Parishilanam kritavan. So we can do this in our mind. Okay. Parishilanam kritavan. The next step is when we go to this step. Gananaya parishila. Parishilanasya anantaram dwaram pihitavan. So atra pihitavan katam bhavati. It becomes pidanam. I don't know, it's pidha. Na janami. Pidanam kritavan. Dwarasya. Then it will become dwarasya. Dwaram pihitavan. Dwarasya pidanasya anantaram.
Yana arudavan.
Dwarasya pidanasya anantaram. Yanam arudavan. Arudavan. So arudavan katam bhavati.
Arohanam.
Arohanam. See, so it becomes very different. This is very different. This is very different. This is very different. The others we can guess. Oh, Shamyata. Okay. So arohanam kritavan. So when we say arohanam kritavan, what happens to yanam?
Yanasya arohanam
anantaram. Arohanasya anantaram. Samyak. Yanasya arohanasya anantaram vastuni kritavan. So we'll make up something. Griham gatavan. How do we change it? Vastuni kritavan.
Vastunam.
Yeah, so that the kritam will change. Vastuna krayanam. Krayanam. Krayanasya anantaram. Griham gatavan.
Gatavan.
Hapa. गुड् एक्ससैस् अस्तु समयः अपि अभवत्
दट्
वास् अ गुड् वन् अस्तु
And here we thought vibhajya is easy to make the verb, easy.
But vibhajya will make us think. Atra api, and punaha, we'll talk about this the next time. But here it is kasmat purvam. So sarvatra panchami vibhakti bhavati atra. Kasmat purvam. But we can do it again. Kasya anantaram, like that. So we can repeat the same exercise, but say kasya anantaram instead of purvam. Because purvam means panchami. Why should we do panchami here? We will change it to shashti. Astu. Sandhya Bhagini, asti va? Astu. Malati Bhagini, swagatam. Idhanim pashyam.
Bhagini, just joined half an hour back.
Oh, evam va? Astu Bhagini, swagatam. धन्यवादः भगिनि धन्यवादः सर्वेभ्यः धन्यवादः शान्तिमन्त्रं का वदति सविता वक्तुम् इच्छति खलु सविता भगिनी वदतु
ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ
धन्यवादः 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 शुभरात्रि शुभदिनं
धन्यवादः भगिनि
धन्यवादः
धन्यवादः
धन्यवादः वदतु महोदय प्रश्नं पृच्छतु
तिष्ठतु तिष्ठन्तु इस् सिङ्गुलर् प्लूरल् तिष्ठयताम् इन् दट्
वेर् इस् वाट्
तिष्ठयताम्
तिष्ठयताम् वा तिष्ठयतां नास्ति खलु तिष्ठतु सो दट् इस् द्विवचनं
तिष्ठेताम् इस् द्विवचनं
आमामां तिष्ठेताम् इस् द्विवचनं धन्यवादः
धन्यवादः
धन्यवादः